अथ श्रीवादिराजस्तोत्रम् चन्द्रार्ककोटिलावण्यलक्ष्मीशकरुणालयम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् इन्द्रादिदेवताराध्यमध्वसद्वंशमादरात् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् श्रीहयास्यार्चनरतम् साधुवेदार्थबोधकम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् दुर्वादिमत्तद्विरदकण्ठीरवमहर्निशम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् सर्वकामप्रदम् श्रीमद्विजेन्द्रकुलशेखरम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् मन्त्रक्रमविचारग्नम् तन्त्रशास्त्रप्रवर्तकम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् ज्ञानादिगुणसम्पन्नमशेषाघहरम् शुभम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् प्रदक्षिणीकृतभुवम् त्वक्षमालाधरम् विभुम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् विचित्रमुकुटोपेतमचिन्त्याद्भुतदर्शनम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् पुरतो व्यासदेवस्य निवसन्तम् महाद्युतिम् वन्दिताङ्घ्रियुगम् सद्भिर्वादिराजम् नतोऽस्म्यहम् इति श्रीवेदवेद्यतीर्थविरचितम् श्रीवादिराजस्तोत्रम्।